शीतलीशो मातुर्मरुतानः अन्तस्ति मीराणाम् अन्तं विदधातु
आद्यौ भुवनानां माता पितरौ तौ देवासुरमर्त्यैर्वन्द्यावविनिन्द्यौ
ब्रूते पृथगेकस्तौ विग्रहवन्तौ आहैकशरीरम्
शक्तिं तनुशून्यां ईशं च पुमांसं वक्ति प्रमदायां सन्देहयुतोऽन्यः
ईशं च तमेके सन्मात्रमुशन्ति ब्रह्मैकमथानि गायन्ति न शक्तिम्
केचित् तनुहीनं प्रज्ञायुतमीशं शक्तिं विदुरस्य प्रज्ञामविकुण्ठा
उक्तं दधतस्तैः केचित् पुनराहुः मायातनुबन्धं नाथस्य न शक्तिः
नित्यं सशरीरौ येषां पितरौ तौ ये कोऽप्यथवा तान् प्रत्याह निसर्गः सन्मात्रकथानां कार्ये मनुजादौ धीस्वान्तविकासः स्यात् कारणहीनः
अद्वैतिभिरन्या
न स्यात् पृथगात्मा शक्तेः किमुपाधेः चक्षुश्रुतचित्तेर्विश्वाकृतिता वा भक्ताननुगृह्णन् दिव्याद्भुतलीलः तद्विग्रहबन्धो बोध्योलसदर्थः
यदि नीष्टं पुंस्त्वं कुत इष्टं नावा किमु
तस्मात् पितरौ तौ वाचौ मतिमन्तौ सूक्ष्मावपि भूयो लीलातनुमन्तौ घनतेजः कुर्वध्वनिमन्तः सम्पश्यदशेषं मूर्तिः प्रणवात्मा
दिव्यो घनसोमः स्यन्दन् रसमन्तः गुञ्जन् भुवनौघं पीयूषशरीरम्
बोधोनवलम्बो दिव्यं खलु तेजः मोदः परिशुद्धो दिव्यः खलु सोमः
सोमांशमहोंशौ यातो घनभावं पित्रोर्भुवनानां सङ्कल्पमहिम्ना
आराधयशीशं तं चिन्मयकायं आनन्दमयाङ्गी त्वं देवि किलेयम्
दिव्यं तव कायं दिव्ये तव वस्त्रे दिव्यानि तवाम्ब
यद्देवि विलोक्यास्य अप्राकृतकाया युक्ती समतीता सेयं तव माया
नव्यास्तनुमध्या मध्या विद्वत्सदसीमा सम्यक् कथयन्तु।